ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। श्रीशुक उवाच। एवं पुत्रेषु नष्टेषु देवमाता दितिस्तदा हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत्। एकदा कश्यपस्तस्याश्रमं भगवानगात्, निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात्। सपत्नीं दीनवदनां कृतासनपरिग्रहः, सभाजितो यथा न्यायमिदमः कुरुद्वः। अप्यभद्रं न विप्राणां भद्रे लोके धुनागतम्, न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः। अपि वा कुशलं किञ्चित् गृहेषु गृहमेधिनि, धर्मस्यार्थस्य कामस्य यत्र योगो हि अयोगिनाम्। अपि वा तिथयोभ्येत्य कुटुम्बासक्तया त्वया गृहादपूजिता यातः प्रत्युत्थानेन वा क्वचित्। गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः। अप्यग्नयस्तु वेलायां न हुता हविषा सति, त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित्। यत्पूजया कामदुघान् याति लोकान् गृहान्वितः, ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम्। अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनी, लक्षये स्वस्थमात्मानं भवत्या लक्षणैरहम्। अदितिरुवाच। भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च, त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे। अग्नयो तिथयो भृत्या भिक्षवो ये च लिप्सवः, सर्वं भगवतो ब्रह्मन्ननुध्यानान्नरिष्यति। को नु मे भगवन् कामो न सम्पद्येत मानसः, यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते। तवैव मारी च मनः शरीरजाः प्रजा इमा सत्त्वरजस्तमो दुषः, समो भवान्स्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः। तस्मादीश भजन्त्यामे श्रेयश्चिन्तय सुव्रत, हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो। परैर्विवासितासाहं मग्ना व्यसनसागरे, ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम। यथा तानि पुनः साधो प्रपद्येरन्ममात्मजाः, तथा विधेहि कल्याणं धिया कल्याणकृत्तम। श्रीशुक उवाच। एवमभ्यर्थितो दित्या कस्तामाः स्मयन्निव, अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत्। क्व देहो भौतिको नात्मा क्व चात्मा प्रकृतेः परः, कस्य के पतिपुत्राद्या मोह एव हि कारणम्। उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनं, सर्वभूतगुहावासं वासुदेवं जगद्गुरुम्। सविधास्यति ते कामान् हरिर्दीनानुकम्पनः, अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम। अदितिरुवाच। केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम्, यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम्। आदिशत्वं द्विजश्रेष्ठ विधिं तदुपधावनम्, आसुतुष्यति मे देवः सीदन्त्याः सह पुत्रकैः। कश्यप उवाच। एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः, यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम्। फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः, अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः। सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया, यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत्। त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता, उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय। निर्वर्तितात्मनियमो देवमर्चेत् समाहितः, अर्चायां स्थण्डिले सूर्ये जले वन्नौ गुरावपि। नमस्तुभ्यं भगवते पुरुषाय महीयसे, सर्वभूतनिवासाय वासुदेवाय साक्षिणे। नमो व्यक्ताय सूक्ष्माय प्रधानपुरुषाय च, चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे। नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे, सप्तहस्ताय यज्ञाय त्रयी विद्यात्मने नमः। नमः शिवाय रुद्राय, नमः शक्तिधराय च, सर्वविद्याधिपतये भूतानां पतये नमः। नमो हिरण्यगर्भाय प्राणाय जगदात्मने, योगैश्वर्यशरीराय नमस्ते योगहेतवे। नमस्तादिदेवाय साक्षिभूताय ते नमः, नारायणाय ऋषये नराय हरये नमः। नमो मरकतश्याम वपुषेऽधिगतश्रिये, केशवाय नमस्तुभ्यं नमस्ते पीतवाससे। त्वं सर्ववरदः पुंसां वरेण्यवरदर्षभ, अतस्ते श्रेयसे धीराः पादरेणुमुपासते। अन्ववर्तन्तयं देवा श्रीश्च तत्पादपद्मयोः, स्पृहयन्तै वामोदं भगवान् मे प्रसीदताम्। एतैर्मन्त्रैः ऋषिकेशमावाहन पुरस्कृतम् अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः। अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम्। वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः गन्धधूपादिभिश्चार्चेत् द्वादशाक्षरविद्यया। श्रितं पयसि नैवेद्यं शाल्यन्नं विभवे सति। ससर्पि सगुडं दत्त्वा जुहुयान्मूलविद्यया निवेदितं तद्भक्ताय दद्याद्भुञ्जीतवा स्वयं। दत्त्वा च मनमर्चित्वा ताम्बूलं च निवेदयेत्। जपेदष्टोत्तरशतं स्तुवीतस्तुतिभिः प्रभुं। कृत्वा प्रदक्षिणं भूमौ प्रणमे दण्डवन्मुदा। कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः। द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम्। भुञ्जीततैरनुज्ञातः शेषं श्रेष्ठः सभाजितैः। ब्रह्मचार्यस तद्रात्र्यां स्वभूते प्रथमेहनि। स्नातशुचिर्यथोक्तेन विधिना सुसमाहितः। पयसा स्नापयित्वार्चेद् यावद्व्रतसमापनम्। पयोभक्षो व्रतमिदं चरेद्विस्मर्चनादृतः। पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत्। एवं त्वहरः कुर्याद् द्वादशाहं पयो व्रतः। हरेराराधनं होममर्हणं द्विजतर्पणम् प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी। ब्रह्मचर्यमथ स्वप्नं स्नानं त्रिश्रवणं चरेत्। वर्जयेदसदालापं भोगानुच्चावचांस्तथा। अहिंस्रः सर्वभूतानां वासुदेवपरायणः। त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः। कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः। पूजां च महतीं कुर्यात् वित्तसाठ्यविवर्जितः। चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे। श्रुतेन तेन पुरुषं यजेत सुसमाहितः। नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम्। आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः। तोषयेद्ऋत्विजश्चैव तद्विद्याराधनं हरेः। भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते। अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः। दक्षिणां गुरवे दद्यात् ऋत्विग्भ्यश्च यथार्हतः। अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान्। भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च। विष्णोस्तत्प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः। नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः। कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम्। एतत्पयोव्रतं नाम पुरुषाराधनं परम्। पितामहेनाभिहितं मया ते समुदाहृतम्। त्वं चानेन महाभागे सम्यक् शीर्णेन केशवम्। आत्मना शुद्धभावेन नियतात्मा भजाव्ययम्। अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम्। तपःसारमिदं भद्रे दानं चेश्वरतर्पणम्। त एव नियमा साक्षात् त एव च यमोत्तमाः। तपोदानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः। तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर। भगवान् परितुष्टस्ते वरानाशु विधास्यति। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे। अदितिपयोव्रतकथनं नाम षोडशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।